एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल। प्रधानमन्त्री सुशीला कार्की सर्वपक्षीयम् उपवेशम् आहूतवती अस्ति। आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य निर्वाचनस्य विषये विमृष्टुम् प्रधानमन्त्री कार्की अद्य अपराह्नस्य चतुर्वादनाय सर्वपक्षीयः उपवेशः आहूतवती अस्तीति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितम् वर्तते। प्रधानमन्त्री कार्की उपवेशे जेन्जी यूनाम् समूहस्य प्रतिनिधयः सुरक्षानिकायाः निर्वाचनायोगम् च आहूतवती अस्ति। आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणम् निर्वाचनम् लक्ष्यीकृत्य सर्वकारेण सम्बद्धैः पक्षैः सह नैरन्तर्येण विमृश्यमाणम् वर्तते। प्रधानमन्त्री सुशीला कार्की निगदति आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणम् प्रतिनिधिसभायाः निर्वाचनम् सम्पादयितुम् सर्वकारः पूर्वकार्ये संलग्नो वर्तते। द्वाविंशस्य राष्ट्रिय ज्यापुदिवसस्य युमरी पुण्यपर्वणश्च अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री कार्की निर्वाचनम् सम्पाद्य देशम् तीव्र विकासस्य मार्गे अग्रे वर्धयितुम् सर्वकारस्य अभियानम् सफलयितुम् च सर्वेषाम् सहयोगस्य सहभागितायाश्च अपेक्षा विहितास्तीति तदवसरे अगदत्। तदवसरे प्रधानमन्त्री कार्की जेन्जी यूनाम् आन्दोलनेन देशस्य युवशक्त्या भ्रष्टाचारस्य अन्त्यम् सुशासनस्य स्थापना नागरिकाणाम् कृते वृत्तेः भोजनस्य वसनस्य वासस्य च सुनिश्चितायाः याचना च विहितास्तीत्यतः एताम् वाञ्छाम् पूरयितुम् सर्वैः एकीभूय संलग्नैर्भाव्यमिति अवोचत। य किरात समुदायैः उधौली पर्व सनातन धर्मावलम्बिभिः धान्यपूर्णिमोत्सवश्च समायोजितौ आस्ताम्। यो मरिपुण्य ज्यापदिवसश्च विशेषतो नेवार समुदायेन समायोजित। मार्गशीर्ष शुक्ल पक्षस्य पूर्णिमा तिथौ एकस्मिन् एव दिने सनातन धर्मावलम्बिभिः धान्यपूर्णिमा, दत्तात्रेय जयन्ती च, किरात धर्मावलम्बिभिः उधौली पर्व, नेवार समुदायेन योमरी पुण्य ज्ञाप दिवसश्च प्रतिवर्षम् समायोज्यन्ते। पर्वेदम् सनातन धर्मावलम्बिभिः जनैः नूतनान्न भोजनस्य पर्वत्वेन समाद्रियते। मार्गशीर्ष मासे क्षेत्रातानितम् नूतनम् धान्यम् अस्मिन् दिने कुलदेवतायै भगवते च समर्प्यते। तदनन्तरमेव तदन्नम् भोजनस्य योग्यम् भवतीति विश्वासेन धान्यपूर्णिमा पर्व समायोज्यते। मधेश प्रदेशस्य दलानि सर्वकार संघटनस्य गृहकार्ये संलग्नानि वर्तन्ते। मुख्यमन्त्रिणः विषये सहमतिम् धर्तुम् प्रदेशस्य सत्तानाम् दलानाम् ह्य जनकपुरे उपविष्टम् उपवेशम् निष्कर्षम् विनैव उपवेशः सम्पन्नोऽस्ति। मुख्यमन्त्रिणः पदस्य कृते नेपाली कांग्रेस दलेन, लोकतान्त्रिक समाजवादी दल नेपालेन च आत्मनः दृढतायाः अत्यागस्य कारणेन सहमतेः अभावेऽपि शीघ्रमेव सहमति भविष्यतीति जनता समाजवादी दलस्य प्रमुख सचेतक पदीय रामाशिष यादवः असूचयत्। प्रदेशे राजनीतिकी स्थिरता अपेक्षिता इति ह्यस्तनोपवेशे सहमतेः अभावेऽपि गठबन्धनस्य भावनायाः अनुसारेण एव सहमतिः भविष्यतीति प्रमुख सचेतक पदीयः यादवः अगदत्। स्वास्थ्य जनसंख्या मन्त्रालयेन इन्फ्लुएन्जा भाइरस इति जीवाणोः संक्रमणात् आत्मनः रक्षितुम् सर्वे अनुरुद्धाः वर्तन्ते। मन्त्रालयेन शैत्यस्य वर्धनेन सहैव इन्फ्लुएन्जा भाइरस इति विषाणोः संक्रमणम् वर्धयितुम् शक्यते इत्यतः संक्रमणात् आत्मानम् रक्षितुम् अनुरुद्धमस्ति। शैत्ये सक्रियेण अनेन विषाणुना बालाः वृद्धाश्च सर्वेऽपि पीड्यन्ते। मन्त्रालयस्य प्रवक्ता डाक्टर प्रकाश बुढाथोकी विशेषतया बालबालिकासु ज्येष्ठ नागरिकेषु च रोग प्रतिरोधात्मक क्षमता न्यूनीभूतेषु अन्येषु जनेषु च इन्फ्लुएन्जा भाइरस इति जीवाणोः संक्रमणस्य सम्भावना भवतीति अगदत्। नेकपा एमाले दलेन एकादशतमे राष्ट्रिय महाधिवेशने नेतृत्वस्य चयनाय वैद्युत मतदानोपकरणम् प्रयुक्ष्यते। एमाले दलस्य उपमहासचिव प्रदीप गेवाली नेतृत्व चयनस्य प्रक्रियां सबलां विदातुम् अस्मिन् महाधिवेशनेऽपि वैद्युत मतदानोपकरणं प्रयोक्ष्यते इति असूचयत। एमाले दलेन एतत्पूर्वं चितवन जनपदे सम्भूते दशम राष्ट्रिय महाधिवेशनेऽपि वैद्युत मतदानोपकरणस्य प्रयोग विहित आसीत्। महाधिवेशनेन एमाले दलस्य पञ्चदश पदाधिकारिभिः सहितानाम् एकपञ्चाशदुत्तरशतद्वयस्य जनानाम् केन्द्रीय समितेः चयनं विधास्यते। कोशी टप्पो वन्यजन्त्वारक्षण केन्द्रात् बहिरागतस्य हस्तिनः आक्रमणेन एको जनः मृतोऽस्ति। मृतकः सप्तरी जनपदस्य कञ्चनरूप नगरपालिकायाः पञ्चम वडा क्षेत्रस्य 65 वर्षीय नारायण खड्गा वर्तते इति कञ्चनपुरवर्तिना प्रहरी कार्यालयेन ज्ञापितम् अस्ति। द्वितीय संस्करणस्य नेपाल प्रीमियर लीग इति क्रिकेट क्रीडा श्रृंखलायां सुदूरपश्चिम रोयल्स समूहेन नैरन्तर्येण 6 विजय अधिगतोऽस्ति। ह्य सम्पन्नायां क्रीडायां चितवन राइनोज समूहोपरि सुदूरपश्चिम रोयल्स इति क्रीडा समूहेन 49 धावनांकैः विजय अधिगतोऽस्ति। त्रिभुवन विश्वविद्यालय क्रिकेट क्रीडा रंगशालायां सुदूरपश्चिम क्रीडा समूहेन ह्य प्रदत्तम् 70+ धावनांकानाम् लक्ष्यम् अनुसरता चितवन क्रीडा समूहेन 10.7 ओवर अंकेषु सर्वेषाम् क्रीडकानाम् ख्यातौ 20+ एव धावनांकाः अर्जिताः आसन्। ह्यः एव क्रीडितायाम् द्वितीय क्रीडायाम् काठमाण्डु गोरखाज इति समूहेन पोखरा एभेंजर्स इति क्रीडा समूहम् विजित्य द्वितीय चरणस्य क्रीडायां काठमाण्डु गोर्खा समूह सम्प्राप्तो वर्तते। काठमाण्डु गोर्खाज समूहेन प्रदत्तम् 67+ धावनांकानम् लक्ष्यम् अनुसरन् पोखरा समूह 20 ओवरांकेषु 52+ धावनांकान् एव अर्जितुम् सफलः आसीत्। विश्व सम्पद सूच्यां सूचीकृते पशुपतिनाथ मन्दिरे आसन्न एक सप्ताहात् स्थापितः लौहस्य परिधि अपाकृतो वर्तते। पशुपतिनाथस्य व्यवस्थितकरणस्य क्रमे लौहस्य परिधि अपाकृतोऽस्तीति पशुपति क्षेत्र विकास कोषस्य सदस्य सचिव सुभाष चन्द्र जोशी असूचयत् इति समाचारः।